ॐ शान्ति शान्ति शान्तिः। ॐ श्री आदिदेवाय अच्युताय नमः। ॐ शान्ति शान्ति शान्तिः। ॐ तत्सत् शान्तिः। ॐ ॐ श्री गुरुभ्यो नमः। ॐ ॐ हरिः। ॐ ॐ शिवाय नमः। ॐ ॐ आत्मा सर्वोत्तमः। ॐ ॐ वायुर्जीवोत्तमः। ॐ ॐ अथ एव प्राणः। ॐ ॐ प्राणस्तथानुगमात्। ॐ ॐ आकारस्थलिङ्गात्। ॐ ॐ असनगतः प्राणः। ॐ ॐ शान्ति शान्ति शान्तिः। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। ॐ ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् तेन चित्तेन भुञ्जीता मा कृतः कस्य स्विद्धनं कुर्वन्नेह कर्माणि जिजीविशेच्छतं समाः। एवं त्वयि नान्यहेतो अस्ति न कर्म लिप्यते नरे। ॐ शान्ति शान्ति शान्तिः। ॐ एको वसि सर्वभूतान्तरात्मा एकं रूपं बहुधायः करोति। तमात्मस्थं ये अनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम्। ॐ शान्ति शान्ति शान्तिः। ॐ शन्नो मित्रः संवरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः। नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम्। ॐ शान्ति शान्ति शान्तिः। ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यसेम देवहितं जगायुः स्वस्ति न इन्द्रो रुद्रस्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॐ शान्ति शान्ति शान्तिः। ॐ वाग्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरामीर्मये वेदस्य महानीसः श्रुतं मे मा प्रहासीर नेनाधीतेनाहोरात्रां सन्नदामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु आवतु माम् आवतु वक्तारमवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं कुर्वावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्याम् मा ब्रह्म निराकरोद निराकरणमस्व अनिराकरणमेस्तु तदात्मनियते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॐ शान्ति शान्ति शान्तिः ॐ प्रणवो धनुः सरोहात्मा ब्रह्म तल्लक्ष्यमुच्यते अप्रमत्तेन वेद्धव्यम् सर्वतन्मयो भवेत् यस्मिन् द्योः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैः सर्वैः तमेवैकं जानत आत्मानमन्या वाचो विमुञ्चतामृतः सैष सेतुः अरायुव रथनाभौ संहता यत्र नाड्यः स एषो अन्तश्चरते बहुधा जायमानः ॐ विद्देवं ध्यायत आत्मानं स्वस्ति वः पाराय तमसः परस्तात् यः सर्वज्ञः सर्वविद्ध सैष महिमा भुवि दिव्ये ब्रह्मपुरे हे श्रव्योम्यात्मा प्रतिष्ठितः मनोमयः प्राणशरीरनेता प्रतिष्ठितो मे हृदयं सन्निधाय तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति ॐ शान्ति शान्ति शान्तिः ॐ वायुरनिलममृतमधेदं भस्मान्तं शरीरम् ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॐ शान्ति शान्ति शान्तिः ॐ नमो परं ब्रह्मचिदात्मकम् वन्दे परमानन्दशान्ताकारम् सर्वात्मशोभितम् तद्वन्दे शान्तमुमेशमीशम् रागादिरोगान् सततानुशास्ते गुरुप्रवीराय नमः ॐ शान्ति शान्ति शान्तिः ॐ त्वद्दत्ततत्त्वमिति जीवात्मतत्त्वम् सन्तृप्तिभक्तियुतसाधकानां तदेकसत्यं सम्भवति सौख्यम् अच्युतं तं नमामि जगदन्धकारमुदेकरूपं गगनान्तरभावनभव्यदृश्यं అగణిత సత్య వేద విద్యా స్థాపన కృపాం కురు మే గురు. శ్రీ అచ్యుత నమస్తే. ఓం శాంతి శాంతి శాంతిః. ఓం సర్వే జనాః సుఖినో భవంతో
తథాస్తు.
లోకాః సమస్తాః సుఖినో భవంతో
తథాస్తు.
తత్వదిగ్విజయ ప్రాప్తిరస్తు
తథాస్తు.
శాంతిరేవ శాంతిరస్తు
తథాస్తు.
సమస్త సన్మంగళాని భవంతు
తథాస్తు.
ఓం హరిః. ఓం స్వస్తి. ఓం నమో అఖిల కళ్యాణ కారణాయ కారుణ్యకాయాయ నమో శ్రీ ఆదిదేవాయ అచ్యుతాయ మంగళం. ఓం శాంతి శాంతి శాంతిః.